परिहन्ताणम् नमो सिद्धाणम् नमो आयरियाणम् नमो उवज्जायाणम् नमो लोए सव्वसाहुणम् एषो पञ्च नमोकारो सव्वपावपणासनो मङ्गलाणञ्च सव्वेसिं परमं हवै मङ्गलम् परमं हवै मङ्गलम् मङ्गलं भगवान् वीरो मङ्गलं गौतमप्रभो मङ्गलं स्थूलिभद्राद्या जैनधर्मोऽस्तु मङ्गलम् मङ्गलं भगवान् वीरो मङ्गलं गौतमगणि मङ्गलं कुन्दकुन्दाद्यः जैनधर्मोऽस्तु मङ्गलम् जैनधर्मोऽस्तु मङ्गलम् जैनधर्मोऽस्तु मङ्गलम् पापतमो वितानं सम्यक् प्रणम्य जिनपादयुगं युगादा वालम्बनं भवजले पततां जनानां प्रभाणा मोद्य द्योतकं दलित पापतमो वितानम् सम्यक् प्रणम्य जिन पादयुगं युगादा बालं वनं भवजले पततां जनानां संस्तुतः सकल वाङ्मय तत्त्वबोधा दुद्भूत बुद्धिपटुभिः सुरलोकनाथै स्तोत्रैर्जगत्त्रितय चित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् विबुधार्चित पादपीठ स्तोतुं समुद्यतमतिर्विगतत्र पोहम् बालं विहाय जलसंस्थितमिन्दुबिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् शशाङ्ककान्तान् कस्ति क्षमः सुरगुरु प्रतिमोऽपि बोध्या कल्पान्तकालपवनोद्धतनक्रचक्रम् को वातरीतुमलमम्बुदिनिम्भुजाभ्याम् तथापि तव भक्तिवशान् मुनीश कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रम् नाभ्येति किं निजशिशोः परिपालनार्थम् तस्श्रुतं श्रुतवतां परिहासधाम वद्भक्तिरेव मुखरी कुरुते बलान्मां यत्कोकिलः किल मधौ मधुरं विरौति तच्चारु चाम्रकलिका निकरैकहेतुः संस्तवेन भव संतति सन्निबद्धम् पापं क्षणाक्षयमुपेति शरीरभाजाम् आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशु भिन्नमिव शार्वरमन्धकारम् सतां नलिनीदलेषु मुक्तापलद्युतिमुपैति ननूदबिन्दुः आस्तां तवस्तवनमस्तसमस्तदोषम् वत्सङ्कथापि जगतां दुरितानि हन्ति दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि अद्भुतं भुवनभूषणभूतनाथ भूतैर्गुणैर्भुवि भवन्तमभीष्टुवन्तः तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति Thank you. दृष्ट्वा भवन्तमनिमेष विलोकनीयम् नान्यत्र तोषमुपयाति जनस्य चक्षुः पीत्वा पयः शशिकरद्युतिदुग्धसिन्धुः क्षारं जलं जलनिधेरसितुं क इच्छेत् शान्तरागरुचिभिः परमाणुभिस्त्वम् निर्मापितस्त्रिभुवनैकललामभूत तावन्त एव खलु ते प्यणवः पृथिव्याम् यत्ते समानमपरं न हि रूपमस्ति क्वते सुरनरो रगनेत्रहारी निशेष निर्जित जगत्त्रितयोपमानम् बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् शशाङ्ककलाकलाप शोभा गुणास्त्रिभुवनं तव लङ्घयन्ति ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तन्निवारयति सञ्चरतो यथेष्टम् किमत्र यदि ते त्रिदशाङ्गनाभिः नीतं मनागपि मनो न विकारमार्गम् कल्पान्तकालमरुता चलिता चलेन स्पन्दराद्रिशिखरं चलितं कदाचित्। निर्धूमवर्तिरपवर्जित तैलपूरः कृष्णं जगत्त्रयमिदं प्रकटीकरोषि। गम्यो न जातुमरुतां चलिताचलाना दीपो परस्त्वमसि नाथ जगत्प्रकाशः। कदाचिदुपयासिन राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति। नाम्भोधरोदरनिरोद्धमहाप्रभावः सूर्यातिशायि महिमासि मुनीन्द्रलोके। नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदाना। विभ्राजते तव मुखाब्जमनल्पकान्तिं विद्योत यज्जगदपूर्वशशाङ्कबिम्बम्। शर्वरीषु शशिनान् हि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमः सुनाथ। निष्पन्नशालिवनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारनम्रैः। त्वयि विभाति कृतावकाशम्। नैवं तथा हरिहरादिषु नायकेषु तेजस्फुरन्मणिषु याति यथा महत्त्वम्। नैवं तु काच शकले किरणाकुलेऽपि दृष्टेषु येषु हृदयं त्वयि तोषमेति किं वीक्षितेन भवता भुवि येन नान्यः। कश्चिन्मनोहरति नाथ भवान्तरेऽपि शतानि शतशो जनयन्ति पुत्रान्। नान्यासुतं त्वदुपमं जननी प्रसूता सर्वादिशो दधति भानि सहस्ररश्मिं। प्राचेव दिग्जनयति स्फुरदंशुजालम्। वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः पुरस्तात्। त्वामेव सम्यगुपलभ्य जयन्ति मृत्युम्। नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थः। वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुं योगीश्वरं विदितयोगमनेकमेकम् ज्ञानस्वरूपममलं प्रवदन्ति सन्ताः त्वमेव विबुधार्चित बुद्धिबोधा त्वं शङ्करोऽसि भुवनत्रय शङ्करत्वात् धातासि धीरशिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि त्रिभुवनार्तिहराय नाथ तोभ्यं नमः क्षितितलामलभूषणाय तोभ्यं नमस्त्रि जगतः परमेश्वराय तोभ्यं नमो जिन भवो ददिशोषणाय यदि नाम गुणैरशेषै त्वं संसृतो निरवकाशतया मुनीश दोषैरुपात्त विबुधाश्रय जात गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि चैरशोकतरु संसृतमुन्मयूख मा भाति रूपममलं भवतो नितान्तम् स्पष्टुल्लसत्किरणमस्ततमो वितानम् बिम्बं रवेरिव पयोधर पार्श्ववर्ति सिंहासने मणिमयूखशिखा विचित्रे विभ्राजते तव वपो कनकावदातम् बिम्बं वियत् विलसदंशुलतावितानम् तुङ्गोदयादृशिरसीव सहस्ररश्मिः कुन्दावदात चल चामर चारु शोभम् विभ्राजते तव वपुः कलधौतकान्तम् उद्यच्छ शाङ्क शुचि निर्झरवारिधार मोचैस्तटं सुरगिरेरिव शातकौम्भम् त्रयं तव विभाति शशाङ्ककान्त मोचैस्थितं स्थगितभानुकरप्रतापम् मुक्ताफलप्रकरजालविवृद्धशोभम् प्रख्यापयत्रिजगतः परमेश्वरत्वम् दिग्विभाग त्रैलोक्यलोकशुभसङ्गमभूतिदक्षः सद्धर्मराज जय घोषण घोषकः सन् खेदुन्दुभिर्ध्वनति ते यशः प्रवादी सुन्दरन मेरु सुपारिजात सन्तानैकादिकुसुमोत्करवृष्टिरुद्धा गन्धोदबिन्दुशुभमन्दमरुत्प्रपाता दिव्यादिवः पतति ते वच सान्ततिर्वा भावलय भूरि विभावि भोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति प्रोद्यत्ति वाकर निरन्तर भूरि संख्या दीप्त्याजयत्यपि निशामपि सोम सौम्याम्। स्वर्गापवर्ग गममार्ग विमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्यः दिव्यध्वनिर्भवति ते विशदार्थ सर्व भाषा स्वभाव परिणाम गुणैः प्रयोज्यः। हेम नव पंकज पुंज कांति पर्युल्ल सन्नख मयूख शिखाभिरामौ पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विबुधा परिकल्पयन्ति। इत्थं यथा तव विभूतिर्भोजिनेन्द्र धर्मोपदेशन विधौ न तथा परस्य यादृक् प्रभादिन कृतः प्रहतान्धकारा तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि। तन्मदा विलविलोलकपोलमूल मत्तभ्रमद्भ्रमरनादविवृद्धकोपम् ऐरावताभमिभमोद्धतमापतन्तम् दृष्ट्वा भयं भवति नो भवदाश्रितानाम्। कुम्भगलदोज्ज्वलशोणिताक्त मुक्ता फलप्रकरभूषितभूमिभागः बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचल संश्रितं ते कल्पांत काल पवनोद्धत वहनिकल्पम् दावानलं ज्वलितमोज्ज्वलमोत्स्फुलिंगम् विश्वं जिघत्सुमिव सम्मुखमापतन्तम् त्वन्नाम कीर्तनजलं शमयत्यशेषम् समदकोकिलकण्ठनीलम् क्रोधोद्धतं फणिनमुत्फणमापतन्तम् आक्रामति क्रमयुगेण निरस्तशङ्कः त्वन्नाम नागदमनि हृदयस्य पुंसः तुरंग गज गर्जित भीमनाद माजौ बलं बलवतामपि भूपतीना उद्यत्ति वाकरमयूख शिखापविद्धम् त्वत्कीर्तनात्तम इवाशुभिदामुपैति भिन्न गज शोणित वारिवाह वेगावतार तरणा तुरयोध भीमे युद्धे जयं विजित दुर्जय जेय पक्षा त्वत्पाद पंकज वनाश्रयिणो लभन्ते क्षुभित भीषण नक्र चक्र पाठीन पीठ भय दुल्वण वाड वाग्नौ रंगतरंग शिखर स्थित यान पात्रः त्रासं विहाय भवतः स्मरणाद् व्रजन्ति। शोच्यां दशामुपगताश्च्युत जीविताशः त्वत्पादपङ्कजरजो मृतदीग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः। कण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिगृष्टजङ्गः त्वन्नाम मन्त्रमनिशं मनुजास्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति। तद्विपेन्द्र मृगराज दवानलाहि संग्राम वारिधि महोदर बन्दनोत्थम् तस्याशुनाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मनिमानधीते। स्रजं तव जिनेन्द्रगुणैर्निबद्धां भक्त्या मया विविधवर्णविचित्रपुष्पां धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशासमुपैति लक्ष्मीः।